तृतीयोपदेशः अथ मुद्रा प्रकरणम् मुद्राणां भेदाः घेरण्डुवाच महामुद्रा नभो मुद्रा उड्डीयानं जलन्धरम् मूलबन्धम् महाबन्धम् महावेधश्च खेचरी विपरीतकरी योनिर्वज्रोली शक्तिचालिनी तडागी माण्डुकी मुद्रा शाम्भवी पञ्चधारणा अश्विनी पाशिनी काकी मातंगी चाभुजंगिनी पञ्चविंशति मुद्राणि सिद्धिधानी योगिनां मुद्राणां फलम् मुद्राणां पटलं देवी कथितं तव सन्निधौ येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि महामुद्रा पायुमूलं वाम गुल्फे संपीढ्य दृढयत्नतः याम्य पादं प्रसार्यार्थ करे धृत पादांगुलः कंठसंकोचनं कृत्वा भ्रोर्मध्यं निरीक्षयेत् महामुद्रा विदा मुद्रा कथ्यते चैव सूरिभिः महामुद्रा फलम् छय कासम गुदावर्त प्लीहा जीर्ण ज्वरम तथा नाशयेत सर्वरोगांश्च महामुद्रा च साधना नभो मुद्रा यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा ऊर्ध्वचिह स्थिरो भूत्वा धारयेत् पवनं सदा नभो मुद्रा भवेदेषा योगिनां रोगनाशिनी उड्डीयान बन्धः उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् उड्डानं कुरुते यस्मात् अविश्रान्तं महाखगः उड्डीयानं त्वसौ बन्धो मृत्युमातङ्गकेसरी उड्डीयान बन्धफलम् समग्राद् बन्धनादेतत् उड्डीयानं विशिष्यते उड्डीयाने समभ्यस्ते मुक्तिः स्वभावकी भवेत् जालंधर बन्धः कंठसंकोचनं कृत्वा चिबुकं हृदये नसेत् जालंधरे कृते बंधे षोडशाधारं बन्धनं जालंधर महामुद्रा मृत्योश्च क्षयकारिणी जालंधर बंध फलम् सिद्धं जालंधरं बंधं योगिनां सिद्धिदायकं सन्मासमभ्यसेद्यो हि सा सिद्धो नात्र संशयः मूलबन्धः पार्श्णवाम पादस्य योनिं माकुञ्चयेत्ततः नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधी मेढ्रं दक्षिणगुल्फे तु दृढबन्धं समाचरेत् जरा विनाशिनी मुद्रा मूलबन्धो निगद्यते मूलबन्ध फलम् संसार सागरं तर्तुम् अभिलषति यः पुमान् विजने संस्थितो भूत्वा मुद्रामेकां समभ्यसेत् अभ्यासाद् बन्धनस्य अस्य मरुत्सिद्धेर्भवेद्ध्रुवम् साधयेद् यत्नतो तर्हि मौनीतो विजितालसः महाबन्धः वामपादस्य गुल्फेन पायुमूलं निरोधयेत् दक्षपादेन तद्गुल्फं सम्पीड्ययत्नतः सुधीः शनै शनैश्चालयेत् पार्ष्णिं योनिं माकुञ्चयेत् शनैः जालन्धरे धारयेत् प्राणं महाबन्धो निगद्यते महाबन्धफलम् महाबंधः परो बंधो जरा मरण नाशनः प्रसादादस्य बंधस्य साधयेत् सर्ववांछितम्। महावेधः रूप यौवन लावण्यम् नारीणाम् पुरुषम् विना मूलबंध महाबंधौ महावेधम् विना तथा महाबंधम् समासाद्य उड्डान कुम्भकम् चरेत् महावेधः समाख्यातो योगिनाम् सिद्धिदायकः। महावेद फलम् महाबंध मूल बंधौ महावेद समन्वितौ प्रत्ययं कुरुते यस्तु सा योगी योगवित्तमः न मृत्युतो भयं तस्य न जरा तस्य विद्यते गोपनीयः प्रयत्नेन वेधो अयं योगी पुंगवैः। केचरी मुद्रा जिह्वादो नाडीं संचिन्नाम रसनाम चालयेत् सदा दोहयेन्नवनीतेन लौहयंत्रेण कर्षयेत् एवं नित्यं समाभ्यासाल्लम्बिका दीर्घतां व्रजेत् यावद् गच्छेत् भ्रुवोर्मध्ये तथा गच्छति खेचरी रसनाम तालु मध्ये तु शनै शनै प्रवेशयेत् कपाल कुहरे जिवा प्रविष्टा विपरीत गा भ्रुवोर मध्ये गता दृष्टिर् मुद्रा भवति खेचरी। खेचरी मुद्रा फलम् न च मूर्छा क्षुदा तृष्णा नैवालस्यं प्रजायते न च रोगो जरा मृत्युर् देवदेहा सजायते नाग्निना दह्यते गात्रं न शोषयति मारुतः न देहं क्लेद्यन्त्यापो दशेन्ना भुजङ्गमः लावण्यं च भवेद् गात्रे समाधिर्जायते ध्रुवम् कपालवक्त्रसंयोगे रसनारसम् आप्नुयात् नानारसमुद्भतम् आनन्दम् च दिने दिने आदौ लवणक्षारं च ततस्तिक्तकषायकम् नवनीतम् घृतम् क्षीरम् दधितक्रमधूनि च द्राक्षरसम् च पीयूषम् जायते रसनोदकम्। विपरीत करणी मुद्रा नाभिमूले वसेत् सूर्यस्तालुमूले च चन्द्रमाः अमृतं गृसते सूर्यस्तथा मृत्युवशो नरः ऊर्ध्वं च योजये सूर्यञ्च चन्द्रञ्च अध आनयेत् विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता भूमौ शिरश्च संस्थाप्य करयुग्मं समाहितः ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरीमता। विपरीतकरणी मुद्रा फलम् मुद्रां च साधये नित्यं जरा मृत्युञ्च नाशयेत् सा सिद्धः सर्वलोकेषु प्रलये अपि न सीदति। योनि मुद्रा सिद्धासनं समासाद्य कर्णचक्षुर्न सोमुखम् अङ्गुष्ठतर्जनी मध्यमनादिभिश्च साधयेत् काकीभिः प्राणं संकृष्य अपाने योजयेत् तथा षट्चक्राणि क्रमाध्यात्वा हुंहंस मनुना सुधी चैतन्यमानये देवीं नित्रताया भुजंगिनी जीवेन सहितां शक्तिं समुत्थाप्य कराम्बुजे शक्तिमयः स्वयं भूत्वा परं शिवेन संगमं नाना सुखं विहारंच चिंतयेत् परमं सुखं शिव शक्ति समयोगात् एकांतं भुवि भावयेत् आनंद मानसो भूत्वा अहं ब्रह्मेति संभवेत् योनि मुद्रा परा गोप्या देवानाम् अपि दुर्लभा सक्रतुलाभ संसिद्धिः समाधिस्था स एव हि योनि मुद्रा फलम् ब्रह्मा भ्रूढः चैव सुरापि गुरु तल्पगः एतैः पापैर्न लिप्येत योनि मुद्रा निबन्धनात् यानि पापानि घोराणि उपपापानि यानि च तानि सर्वाणि नश्यन्ति योनि मुद्रा निबन्धनात् तस्मात् अभ्यसनं कुर्यात् यदि मुक्तिं समिच्छति वज्जोली मुद्रा धरामवस्तभ्यकरयोस्तलाभ्याम् ऊर्ध्वं क्षिपेत् पादयुगं शिरःखे शक्ति प्रबोधाय चिरजीवनाय वज्रोली मुद्रां मुनयो वदन्ति वज्रोली मुद्रा फलम् अयं योगो योग श्रेष्ठो योगिनां मुक्तिकारणम् अयं हितप्रदो योगो योगिनां सिद्धिदायकः एतद् योग प्रसादेन बिंदु सिद्धिर्भवेद् ध्रुवम् सिद्धे बिंदौ महायत्ने किं न सिद्ध्यति भूतले भोगेन महता युक्तो यदि मुद्रां समाचरेत् तथापि सकला सिद्धिस् तस्य भवति निश्चितम् शक्ति चालनी मुद्रा मूलाधारे आत्मशक्ति कुंडली पर देवता शयता भुजगा कारा सार्ध त्रिवलायान्विता यावत् सा निद्रिता देहे तावत् जीवः पशुर्यथा ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् उद्घाटयेत् कपाटञ्च तथा कुञ्चिकया हठात् कुण्डल्या प्रबोधेन ब्रह्मद्वारं प्रबोधयेत् नाभिं संवेष्टवस्त्रेण न च नग्नो बहिः स्थितः गोपनीय गृहे स्थित्वा शक्ति चालनम् अभ्यसेत् वितस्ति प्रमितं दीर्घं विस्तरारे चतुरंगुलं मृदलं धवलं सूक्ष्मं वेष्टनाम्बर लक्षणम् एवं अम्बरयुक्तं च कटिसूत्रेण योजयेत् भस्मनागात्रं संलिप्य सिद्धासनं समाचरेत् नासाभ्यां प्राणम् आकृष्य अपाने योजयेत् बलात् तावता कुञ्चयेत् गुह्यं शनैरश्वनी मुद्रया यावद् गच्छेत् सुषुम्नायां वायुः प्रकाशयेत् हठात् तदा वायुबन्धेन कुम्भिका चाभुजङ्गिनी बद्धश्वासस्ततो भूत्वा ऊर्ध्वमार्गं प्रपद्यते विनाशक्तिचालनेन योनि मुद्रा न सिद्ध्यति आदौ चालनमभ्यस्य योनि मुद्रां समभ्यसेत् इति ते कथितं चण्डिकापाले शक्ति चालनम् गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् शक्ति चालनी मुद्रा फलम् मुद्रेयं परमा गोप्या जरामरणनाशिनी तस्मात् अभ्यसनं कार्यं योगिभिः सिद्धिकांक्षभिः नित्यं यो अभ्यसते योगी सिद्धिस्तस्य करे स्थिता तस्य विग्रह सिद्धिः स्याद् रोगाणां संचयो भवेत् ताडागी मुद्रा उदरं पश्चिमोत्तानं कृत्वा चातडागिकृतं ताडागी सा परा मुद्रा जरा मृत्यु विनाशिनी मांडुकी मुद्रा मुखं समुद्रितं कृत्वा जिह्वामूलं प्रचालयेत् शनैर्गृषेदं ऋतं तन् माण्डुकीं मुद्रिकां विदुः माण्डुकी मुद्रा फलम् वलितं पलितं नैव जायते नित्य यौवनम् न केशे जायते पाको यः कुर्यात् नित्य माण्डुकीं शाम्भवी मुद्रा नेत्राञ्जनं समालोक्य आत्मा रामं निरीक्षयेत् सा भवेच्छाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता शाम्भवी मुद्रा फलम् वेदशास्त्रपुराणानि सामान्यगणिका इव इयं तु शाम्भवी मुद्रा गुप्ता कुलवधूरिव सा एव आदिनाथश्च स च नारायणः स्वयं स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति साम्भवीं सत्यं सत्यं पुनः सत्यं सत्यं मुक्तं महेश्वरः साम्भवीं यो विजानीयात् स च ब्रह्म न चान्यथा पञ्चधारणा मुद्रा कथिता शाम्भवी मुद्रा शृणुष्व पञ्चधारणम् धारणानि समासाद्य किं न सिद्ध्यति भूतले अनेन नरदेहेन स्वर्गेषु गमनागमम् मनोगतिभवेत्तस्य खेचरत्वं न चान्यथा पार्थिवी धारणा मुद्रा चाम्बसी धारणा तथा आग्नेय धारणा मुद्रा वायवी धारणा ततः आकाशी धारणा मुद्रा पञ्चैताः पञ्च धारणाः पार्थिवी धारणा मुद्रा यत्तत्त्वं हरितालदेशरचितं भौमं लकार अन्वितं वेदास्त्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनं प्राणं तत्र विलीय पञ्च घटिकाश्चित्तान्वितं धारयेत् ईशाय स्तम्भकरी सदाच्छिति जयं कुर्यात् अधो धारणम् पार्थ्वी धारणी मुद्रा फलम् पार्थ्वी धारणा मुद्राम् यः करोति च नित्यशः मृत्युञ्जया स्वयं सोऽपि सा सिद्धो विचरेद् भुवि आम्भसी धारणा मुद्रा शङ्खेन्दुप्रतिमञ्च कुन्दधवलं तत्त्वं किलालं शुभं तत्पीयुष्वकारबीजसहितं युक्तं सदा विष्णुना प्राणं तत्र विलीय पञ्च घटिकाश्चित्तान्वितं धारयेत् ईशः दुःसह ताप पाप हरणी स्याद अम्भसी धारणा। आम्भसी धारणा मुद्रा फलम् आम्भसीं परमां मुद्रां यो जानाति स योगवेत् गभीरे च जले घोरे मरणं तस्य नो भवेत् इयं तु परमा मुद्रा गोपनीया प्रयत्नतः प्रकाशात् सिद्धि हानिः स्यात् सत्यं वच्मि च तत्त्वतः। आग्नेयी धारणा मुद्रा यन्नाभिस्थितं इन्द्रगोपसदृशं बीजं त्रिकोणान्वितं तत्त्वं तेजुमयं प्रदीप्तं अरुणं रुद्रेण यत् सिद्धिदम् प्राणं तत्र विलीय पञ्च घटिकाश्चित्तान्वितं धारयेत् एषा कालगभीरभीतिहरिणी वैश्वानरी धारणा। आग्नेयी धारणा मुद्रा फलम् प्रदीप्ते ज्वलिते वहनौ यदि पतति साधकः एतन्मुद्रा प्रसादेन सा जीवति न मृत्युभात्। वायवी धारणा मुद्रा यद्भिन्नाञ्जन्पुञ्जसन्निभविमदं धूम्रावभासं परम् तत्त्वं सत्त्वमयं यकार सहितं यत्रेश्वरो देवता प्राणं तत्र विलीय पञ्च घटिकाश्चित्तान्वितं धारयेत् ईशाखी गमनं करोति यमिनां स्याद्वायवी धारणा। वायवी धारणा मुद्रा फलम् इयं तु परमा मुद्रा जरा मृत्यु विनाशिनी वायुना म्रियते नापि खेगतेश्च प्रदायिनी शठाय भक्तिहीनाय न देया यस्य कस्यचित् दत्ते च सिद्धहानिः स्यात् सत्यं वच्मि च चण्डते। आकाशी धारणा मुद्रा यत् सिन्धौ वरशुद्धिवरी सदृशं व्योमं परं भासितं तत्त्वं देव सदा शिवेन सहितं बीजं हकार अन्वितं प्राणं तत्र विलीय पञ्च घटिकाश्चित्तान्वितं धारयेत् ईशा मोक्ष कपाट भेदन करी कुर्यात् नभो धारणाम्। आकाशी धारणा मुद्रा फलम् आकाशी धारणाम् मुद्राम् यो वेत्ति स च योगवेत् न मृत्युर्जायते तस्य प्रलये नावसीदति। अश्वनी मुद्रा आकुञ्चयेत् गुद्द्वारं प्रकाशयेत् पुनः पुनः सा भवेदश्विनी मुद्रा शक्ति प्रबोधकारिणी। अश्विनी मुद्रा फलम् अश्विनी परमा मुद्रा गुह्य रोग विनाशिनी बलपुष्टिकरी चैव अकाल मरणं हरे। पाशिनी मुद्रा कंठ पृष्ठे छिपे पादौ पाशव दृढ़ बंधनम् साएव पाशिनी मुद्रा शक्ति प्रबोध कारिणी। पाशिनी मुद्रा फलम् पाशिनी महती मुद्रा बल पुष्टि विधायनी साधनीया प्रयत्नेन साधकैः सिद्धि कांक्षभिः। काकी मुद्रा काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः काकी मुद्रा भवेदेषा सर्वरोग विनाशिनी। काकी मुद्रा फलम, काकी मुद्रा परा मुद्रा सर्वतंत्रेषु गोपिता, अस्याः प्रसाद मात्रेण न रोगी काकवद् भवेत्। मातंगिनी मुद्रा कंठमग्न जले स्थित्वा नासाभ्याम जलम आहरेत्। मुखा निर्गमयेत् पश्चात् पुनर्वक्त्रेण च आहरेत्। नासाभ्याम रेचयेत् पश्चात् कुर्यादेवं पुनः पुनः। मातंगिनी परा मुद्रा जरा मृत्यु विनाशिनी। मातंगिनी मुद्रा फलम्, विरले निर्जने देशे स्थित्वा चैकाग्रमानसः, कुर्यान् मातंगिनी मुद्रां मातंगिव जायते। यत्र यत्र स्थितो योगी सुखम् अत्यन्तम् अश्नुते, तस्मात् सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम्। भुजंगिनी मुद्रा वक्त्रं किञ्चित् स्रूप्रसार्य चानिलं गलया पिबेत्। सा भवेद् भुजगी मुद्रा जरा मृत्यु विनाशिनी। भुजंगिनी मुद्रा फलम्, यावच्च उदरे रोगा अजीर्णादि विशेषतः, तत्सर्वं नाशयेदाशु यत्र मुद्रा भुजंगिनी। मुद्रा फलम्, इदं तु मुद्रा पटलम् कथितं चण्ड ते शुभम्। वल्लभं सर्वसिद्धानां जरामरणनाशकम्। षठाय भक्तिहीनाय न देयं यस्य कस्यचित्, गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि। ऋजुवेशान्तचित्ताय गुरुभक्ते पराय च, कुलीनाय प्रदातव्यं भोगमुक्ति प्रदायकम्। मुद्राणां पटलं हेतत् सर्वव्याधि विनाशनम्। नित्यमभ्यासशीलस्य जठराग्नि विवर्धनम्। न तस्य जायते मृत्युर्नास्य जरादिकं तथा, नाग्निजलभयं तस्य वायुरपि कुतो भयम्। कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः। मुद्राणां साधना चैव विनश्यन्ति न संशयः, बहुना किमोक्तेन सारं वच्मि च चण्डते। नास्ति मुद्रा समं किञ्चित् सिद्धिदं चिति मण्डले। इति श्री घेरण्ड संहितायां घेरण्ड चण्डिकापाल संवादे मुद्रा कथनं नामः तृतीयोपदेशः।